अथ द्वितीयः पादः कर्मण्यण् ह्वावामश्च आतोऽनुपसर्गेकः सुपिस्थः तुन्दशोकयोः परिमृजापनुदोः प्रेदाज्ञः समिख्यः गापोष्टक् हरतेरनुद्यमने च वयसि च आङिताच्छील्ये अर्हः स्तम्भकर्णयोरमिजपोः शमिधातोः संज्ञायाम् अधिकरणे शेतेः चरेष्टः भिक्षासेनादायेषु च पुरोग्रतोग्रेषु सर्तेः पूर्वे कर्तरि कृयो हेतुताच्छील्यानुलोम्येषु दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दी किं लिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसङ्ख्याजङ्घाबाह्वहर्यत्तद्धनुररुषु कर्मणि भृतौ न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु स्तम्भशकृतोरिन् हरतेर्द्रुतिनाथयोः पशौ फले ग्रहिरात्मम्भरिश्च छन्दसि वनसनरक्षिमथाम् एजेः खश् नासिकास्तनयोर्ध्माधेटोः नाडीमुष्ट्योश्च उदिकूले रुजिवहोः वहाभ्रेलिहः परिमाणे पचः मितनखे च विध्वरुषोस्तुदः असूर्यललाटयोर्दृशितपोः उग्रम् पश्येरम्मदपाणिन्धमाश्च प्रियवशेवतः खच् द्विषत्परयोस्तापेः वाचियमो व्रते पूःसर्वयोर्दारिसहोः सर्वकूलाभ्रकरीषेषु कषः मेघर्तिभयेषु क्रियः क्षेमप्रियमद्रेञ्च आशिते भुवः कर्णभावयोः संज्ञायाम् भृतृवृजिधारिसहितपि दमः गमश्च अन्तात्यन्ताध्वदूरपारसर्वानन्तेषुडः आशिषिहनः अपेक्लेशतमसोः कुमारशीर्षयोर्निनिः लक्षणे जायापत्योष्टक् अमनुष्यकर्तृके च शक्तौ हस्तिकपाटयोः पाणिघताडघौ शिल्पिनि आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्यर्थेष्वच्वौ कृयः करणे ख्युन् कर्तरि भुवः खिष्णुच्खुकयौ स्पृशोऽनुदके क्विन् ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिकृञ्चाञ्च त्यदादिषु दृशो नालोचनेकै च सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनी राजामुपसर्गेऽपि क्विप् भजोऽण्विः छन्दसि सहः वहश्च कव्यपुरीशपुरीष्येषुण्युट् हव्येनन्तः पादम् जनसनखनक्रमगमो विट् अदोनन्ने क्रव्ये च दुहः कब्घश्च मन्त्रे श्वेतवहोक्थशः स्पुरोडाशोऽण्विन् अवेयजः विजुपेच्छन्दसि आतो मनिन्क्वनिब्वनिपश्च अन्येभ्योऽपि दृश्यन्ते क्विप् च स्थः क च सुप्यजातौ निनिस्ताच्छील्ये कर्तर्युपमाने व्रते बहुलमाभीक्ष्ण्ये मनः आत्ममाने खश्च भूते करणे यजः कर्मणि हनः ब्रह्मभ्रूणवृत्रेषु क्विप् बहुलञ्छन्दसि सुकर्म पाप मंत्र पुण्येषु कृयः सोमेषु यः अग्नौ चेह कर्मण्यग्न्याख्यायाम् कर्मणीनि विक्रियः दृशेः क्वनिप राजनियुधि कृयः सहेच सप्तम्याम् जनेर्डः पञ्चम्यामजातौ उपसर्गे च संज्ञायाम् अनौ कर्मणि अन्येष्वपि दृश्यते निष्ठा सुयजोर्न्वनिप जीर्यते रत्रन् छन्दसि लिट् लिटः का नज्वा क्वसुश्च भाषायाम् सदवसश्रुवः उपेयिवाननाश्वाननूचानश्च लुङ् अनद्यतने लङ् अभिज्ञावचने लृट् न यदि विभाषा साकाङ्क्षे परोक्षे लिट् हशश्वतोर्लङ् च प्रश्ने चासन्नकाले लट्स्मे अपरोक्षे च ननौ पृष्टप्रतिवचने नन्वोर्विभाषा पुरिलुङ् चास्मे वर्तमाने लट् लटश्चतृशानचावप्रथमासमानाधिकरणे सम्बोधने च लक्षणहेत्वोः क्रियायाः तौ सत् पूङ्यजोः शानन् ताच्छील्यवयोवचनशक्तिषु चानश इङ्धार्योः शत्रकृच्छ्रिणि द्विषो मित्रे सुयो यज्ञसंयोगे अर्हः प्रशंसायाम् आक्वेस्तच्छीलतद्धर्म तत्साधुकारिषु तृन् अलङ्क्री निराक्री प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच नेश्छन्दसि भुवश्च ग्लाजिस्थश्च घ्नुः त्रसि गृधिदृशि क्षिपेः क्नुः शमित्यष्टाभ्यो घिनुण् सम्पृचानुरुधाङ्यमाङ्यस परिसृ संसृज परिदेवि सञ्ज्वर परिक्षिप परिरट परिवद परिदह परिमुह दुषद्विषद्रुह दुहयुजा क्रीड विविच त्यज रज भजाति चरापचरामुषाभ्याहनश्च वौकशलसकत्थस्रम्भः अपेचलशः प्रेलपसृद्रुमथवदवसः निन्दहिंसक्लिशखाद विनाश परिक्षिप परिरट परिवादिव्याभाषासू यो वै देवि कृशोश्चोपसर्गे चलनशब्दार्थादकर्मकाद्युच् अनुदात्तेतश्च हलादेः जुचङ्क्रम्य दन्द्रम्य सृगृधिज्वलशुचलशपतपदः क्रुधमण्डार्थेभ्यश्च न यः सूददीपदीक्षश्च लशपतपदस्थाभूवृषहनकमगमश्रूभ्य उकै जल्पभिक्षकुट्टलुण्टवृङ्गशाकन् प्रजोरिणिः जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च स्पृहि गृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् दाधेत्सिषदसदोरुः सृघस्यदः क्मरच् भञ्जभासमिदो घुरच् विदिभिदिच्छिदेः कुरच् इण्णश्चिसर्तिभ्यः क्वरप् गत्वरश्च जागुरूकः यजजपदशायङः नमिकम्पि स्म्यजसकमहिंसदीपोरः सनाशंसभिक्ष उः विन्दुरिच्छुः ಇತ್ಯಾಚ್ಛಂದಸಿ ಆದೃಗಮಹನ ಜನ ಕಿಕಿನೌ ಲಿಚ್ಚ ಸ್ವಪಿತೃಶೋರ್ನಜಿಂ ಶ್ರೂವಂದ್ಯೋರಾರುಹು ಭಿಯಕೃಕ್ಲುಕನೌ ಸ್ಥೇಷ ಭಾಸ ಪಿಸಕಸೋ ವರಚ ಯಶ್ಚ ಯಂಗಃ ಭ್ರಾಜ ಭಾಸ ದುರ್ವಿದ್ಯುತೋರ್ಜಿಪ್ರೂಜುಗ್ರಾವಸ್ತು ವಃ ಕ್ವಿಪ್ ಅನ್ಯೇಭ್ಯೋಪಿ ದೃಶ್ಯತೆ ಭುವಸ್ಸಂಜ್ಞಾಂತರಯೋಃ ವಿಪ್ರಸಂಭ್ಯೋಡ್ವಸಂಜ್ಞಾಯಾಂ ಧಃಕರ್ಮನಿಷ್ಟ್ರನ್ ದಾಂನೀಶಸ ಯುಯುಜಸ್ತು ತುದಸಿಸಿ ಚ ಮಿಹ ಪತದಶ ನಃ ಕರಣೇ ಹಲಸೂಕರಯೋಃ ಪುವಃ ಅರ್ತಿಲೂಧೂಸೂಖನ ಸಹಚರ ಇತ್ರಃ ಪುವಸ್ಸಂಜ್ಞಾಯಾಂ ಕರ್ತರಿ ಚರ್ಷಿ ದೇವತಯೋಃ ನೀತಃಕ್ತಃ ಮತಿಬುದ್ಧಿಪೂಜಾರ್ಥೇಭ್ಯಶ್ಚ ಇತಿ ದ್ವಿತೀಯಃ ಪಾದಃ.